अस्य श्री महालक्ष्मी सहस्रनाम स्तोत्र महामंत्रस्य सनत कुमार ऋषिः श्री महालक्ष्मी देवता गायत्री छंदः श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं मम अष्टैश्वर्य सिद्ध्यर्थे धर्मार्थ काम मोक्ष सिद्ध्यर्थं जप पारायणे विनियोगः ॐ नाम्नाम् साष्ट सहस्रं च ब्रूहि गार्ग्य महामते महालक्ष्म्यः महादेव्यः भुक्ति मुक्त्यर्थ सिद्धये गार्ग्य उवाच सनत्कुमारमासीनम् द्वादशादित्य सन्निभम् अपृच्छन् योगिनो भक्त्या योगिनामर्थ सिद्धये सर्वलौकिक कर्मभ्यो विमुक्तानाम् हिताय वै भुक्ति मुक्ति प्रदम् जप्य मनुब्रूहि दयानिधे सनत्कुमार भगवन् सर्वज्ञोऽसि विशेषतः आस्तिक्य सिद्धयेन्द्रिणाम् क्षिप्र धर्मार्थ साधनम् खिद्यन्ति मानवाः सर्वे धनाभावेन केवलम् सिद्धन्ति धनिनो नैव देवा धर्मार्थ कामदाः दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता केन वा ब्रह्म विद्यापि केन मृत्युविनाशिनी सर्वा सांसारभूतैका विद्यानाम् केन कीर्तिता प्रत्यक्ष सिद्धिदा ब्रह्मन् तामाचक्ष्य दयानिधे सनत्कुमार उवाच साधु पृष्ठम् महाभागैः सर्वलोकहितैः शिभिः महतामेष धर्मश्च नान्येषामिति मे मतिः ब्रह्म विष्णु महादेव महेन्द्रादि महात्मभिः सम्प्रोक्तम् कथयाम्यद्य लक्ष्मी नाम सहस्रकम् यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः किम् पुनस्तज्जपाजापी सर्वेषार्थानवाप्नुयात् अथन्यासः अस्य श्रीलक्ष्मी दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ब्रह्म विष्णु महादेव महेन्द्रादि महात्मानो महर्षयः अनुष्टुप् छन्दः विष्णु महाशक्तिर्महालक्ष्मी परा देवता श्री महालक्ष्मी प्रसादद्वारा सर्वेष्टार्थ सिद्ध्यर्थे जपे विनियोगः ध्यानम् पद्मनाभप्रियाम् देवीम् पद्माक्षीम् पद्मवासिनीम् पद्मवक्त्राम् पद्महस्ताम् वन्दे पद्मामहर्निशम् पूर्णेन्दुबिम्बवदनाम् दिव्यरत्नाभरणभूषिताम् वरदाभयहस्ताभ्याम् ध्यायेच्चन्द्रसहोदरीम् इच्छारूपाम् भगवतीम् सच्चिदानन्दरूपिणीम् सर्वज्ञाम् सर्वजननीम् विष्णुवक्षस्थलालयाम् दयालुमनिशम् ध्यायेत् सुखसिद्धिस्वरूपिणीम्।